कुरुक्षेत्रे समवेता जुजुत्सवः मामका पाण्डवश्चैव किं अकुर्वत संजय। संजय उवाच दृष्ट्वा तु पाण्डवानेकं बूढं दुर्जधनस्तदा आचर्यमुपसंगम्य राजा वचनम् अब्रवी पश्यैतान् पाण्डुपुत्राणाम् आचर्यं महतीं चमुं बूढां द्रुपदपुत्रेण तव शिष्येन धीमता अत्र शूरा महिष्वाशा भीमार्जुनसमायुधि जुजुधान विराटश्च द्रुपदश्च महारथः धृष्टकेतुश्चेकितान काशीराजश्च वीर्यवान् पुरुजित कुन्तीभोजश्च शैवश्च नरपुङ्गवः जुधामन्नुश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्र द्रौपदीयाश्च सर्व एव महारथः अस्मकन्तु विशिष्टाजे तान्निबोध द्विजोत्तम नायका मम सैन्यस्य सङ्गार्थं तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जय अश्वत्थामा विकर्णश्च सोमदत्तिस्तथैव च अन्ये च बहव सूरा मदर्थे तक्तजीविता नानाशस्त्रप्रहरणा सर्वे युद्धविशारदा अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं तीदमेतेषां बलं भीमाभिरक्षितम् अयनेषु च सर्वेषु यथाभागम् अवस्थितः भीष्मामेवाभिरक्षन्तु भवन्त सर्व एव हि तस्य संजनयन् हर्षं कुरु वृद्ध पितामह सिंहनादं विनदुच्चौ शङ्खं दध्मौ प्रतापवान् तत शङ्खाश्च भीर्जश्च पवनाकगौर्मुखा सहसैवाभिहनन्त्या स शब्दस्तु मूलो भव तत शीतैर्हयैर्युक्ते महति सन्दने स्थितौ माधव पाण्डवश्चैव दिव्यौ शङ्खौ प्रदभ्नतु पाञ्चजन्नं ऋषिकेश देवदत्तं धनञ्जयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा विकोदरः अनन्तविजयं राजा कुन्तीपुत्र युधिष्ठिरः नकुलसहदेवश्च सुघोषमणिपुष्पको काश्यश्च परमेशाश शिखण्डी च महारथः धृष्टद्युम्न विराटश्च सात्तकीश्च पराजितः द्रुपद द्रौपदेयाश्च सर्वेश पृथिवीपते सौभद्रश्च महाबाहो शङ्खान् दध्मो पृथक् पृथक् साघोष धाटराष्ट्राणां हृदयानि व्यतारयत् नभश्च पृथिवीं चैव तुमुलव्यनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धाटराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ऋषिकेशं तदा वाक्यम् इदम् आहो महीपते अर्जुन उवाच सेनयरुभयर्मध्ये रथं स्थापय मे च्युत जावदेतं निरीक्षेहं जद्धु कामानवस्थितान् कोइर्मया सहजोद्धवम् अश्मीरनसमुद्दमे ज्योत्समानन् अभिक्षेहं जा एतेऽत्र समागता धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रिया चिकीर्षवः सञ्जय उवाच एवमुक्त ऋषिकेश गूरकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान् समवेतान् कुरुनीति तत्रापश्चात् स्थितं पार्थ पितॄनथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा शशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य सकौन्तेय सर्वान् बन्धूनवस्थितान् कृपया परया विष्टो विशिदन्निदम् अब्रवीत् अर्जुन युवाच दृष्टे मं सजनन् कृष्ण जुजुत्सु समवस्थितान् सीदन्ति मम गात्राणि मुखं च परिशुष्यति बेपथुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं संसते हस्तात् तच्चैव परिदच्छते न च शक्नुमवस्थातुं भ्रमतीव च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयानुपश्यामि हत्या सजनम् आहवे न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा जेषामर्थे काङ्क्षितं नो राज्यं भोग्य सुखानि च त इमेव स्थिता युद्धे प्राणं स्तक्ता धनानि च आचर्य पितरा पुत्रास्तथैव च पितामहा मातुला शशुरा पौत्रा शाला सम्बन्धिनस्तथा एतन्मे हन्तुमिच्छामि घ्नतोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतो किं न महि कृते निहत्या धार्तराष्ट्रन्य का प्रीति सा जनार्दन पापमेवाश्रयेदस्मान् हत्यैतानातायिन तस्मान्यार्ह वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् सजनं हि कथं हत्या सुखी न स्याम माधव यद्यपेते न पश्यन्ति लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकं कथं न ज्ञेयमस्माभिः पापादस्मान् निवर्तितुं कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन कुलक्षये प्रणश्यन्ति कुलधर्मा सनातनः धर्मे नष्टे कुलं कृष्ण अधर्माभिभवत् अधर्माभिभवत् कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टाशु वाष्णेय जायते वर्णसङ्करः करो नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितर येषां लुप्तो पिण्डोदकक्रिया दोषैरेतै कुलघ्नानां वर्णसङ्करकारकै उत्सादन्ते जातिधर्मा कुलधर्माश्च शाश्वता उत्सन्य कुलधर्मानां मनुष्यानां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुमा अहं वतो महत्पापं कर्तुं व्यवसिता वयं यद्राज्यसुखलोभेन हन्तुं सजनम् उद्यता यदि मां प्रतीकारं अशस्त्रं शस्त्रपानयः धार्तराष्ट्ररणे हन्तु तन्मे क्षेमतरं भवेत् संजय उवाच एवमुक्तार्जुन सङ्खे रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविघ्नमानस इति श्रीमहाभारते शतसहस्रां संहितायां वैयासिकं भीष्मपर्वाणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगनामो प्रथमोऽध्यायः श्रीमद्भगवद्गीता द्वितीयोऽध्यायः सांख्ययोग संजय उवाच तं तथा कृपया विष्टं अश्रुपूर्णकुलेक्षणं वीषिदन्तं इदं वाक्यं उवाच मधुसूदन श्रीभगवान् उवाच कुतस्त्वा कश्मलम् इदं विषमे समुपस्थितम् अनार्यजुष्टमसर्गम् अकीर्तिकरम् अर्जुन क्लैबं मा स्म गमपार्थ नैतद्वयुपपद्यते क्षुद्रं हृदय दौर्बल्यं तत्तत्तिष्ठ परन्तप अर्जुन उवाच कथं भीष्मं अहं संख्ये द्रोणं च मधुसूदन ईशुभि प्रतियोत्स्यामि पूजार्हावरिसूदन गुरुन् हत्या हि महानुभावान् श्रेयभोक्तुं भक्ष्यमपि ह लोके हत्यार्थकामांस्तु गुरुनिहैव भुञ्जीयभोगान् रुधिरप्रदिग्धान् न चैतद्विद्म कतरन्न गोरिय जद्मा जयेम यदि वा न जोयु जाने वहत्या न जिजीविषामस्तेव स्थिता प्रमुखे धार्तराष्ट्रा कार्पन्न दोषः पतः स्वभाव पृच्छामि त्वां धर्मसम्भूढचेता यच्छ्रेयशान्निश्चितं गृहीतन्मे शिष्यस्तेऽहं साधिमां तां प्रपन्नम् न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषनमिन्द्रियाणाम् आवाप्य भूमावसपत्नरिद्धं राज्यं सुराणाम् अपि चाधिपत्यम् संजय उवाच एवमुक्ता ऋषिकेशं गुरकेश परन्तपः न योत्स इति गोविन्दम् उक्ता तुष्णीं बभूवः तमुवाच ऋषिकेश प्रहसन्निव भारत सेनयरुभयर्मध्ये श्रीभगवानुवाच अशुच्यानानुशुचस्तं प्रज्ञवादंश्च भाषसे गतासु न गतासुश्च नानुशोचन्ति पण्डितः नात्यवाहं जातु नासं न त्वं नेमे जनाधिपः न चैव न भविष्याम सर्वे वयम् अतः परं देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्ति धीरस्तत्र न मुह्यति मात्रस्पर्शस्तु कौन्तेय शीतोष्णसुखदुःखदा आगमापायिन नित्तस्तां स्थितिक्षस्य भारत jamhi na vyathayante te purushan purushar shabha samo dukha sukhaṁ dhīraṁ so amritattāya kalpate nāsato viddhate bhāvo nā bhāvo viddhate sataha ubhayaropi drishtantas tanayostatta darshibhi avināshi tutad viddhi jena sarvam idam tatam vināsham abhayasyasya na kaschit kartum arhati antabantu ime deha nitta shokta sharirina anashino apramayasya tasmad yuddhasya bharata jayenam vetti hantaram jashchainam mannate hatam ubhautau na vijanita nayam hanti na hannate na jayate mriyate va kadachin nayam bhutya bhavita va na bhuya ajo nitya shashvato ayam purano na hannate hannamane sharire veda vinashinam nityam jayenam apyam abhayam kathaṁ sa parśa pārtha kaṁ ghātayati hantikam vāśaṁ śijirnāni yathā vihāya navāni grinnāti naro parāni tathā śarirāni vihāya jirnāni annāni saṅjāti navāni dehi nainam chindanti śastrāni nainam dahati pavakaha na chainam kledayan tapo na shoshayati marutaha acchedvayam adachvayam akledva shosha evacha nitta sarvagata sthanu acholoyam sanatana abhyaktvayam achintoyam avikarjoyam uchyate tasmadevam vidittainam nanu shochito marhasi atho chainam nitta jatam nittam vamanna se mritam tathapi dharma nashyati jatasya hi dhruvo mrittur dhruvam janma mritasya cha tasmad aparihārjethe nātaṁ śocitum arhasi abhyakta dīni bhūtāni vyakta madhyāni bhārata abhyakta nidhana neva tatra kāpari devana āścharjavat paśyati kaścidenam āścharjavat vadati tathaina chānyam āścharjavat chainam manasrinoti śruttāpyenam vedānā caiva kaści dehi nittam abuddhoyam dehe sarvasya bhārata tasmāt sarvāni bhūtāni nā tvaṁ śocitum arhasi janmamapi cāviksha nā vikampitum arhasi durmādvijuddhāśreyanyat kṣatriyasya na viddate jatrichaya chopapanyam sargadhyaram apavritam sukhinakshatriya partha lavante juddhamidrisham atho chittam imam dharmam sangramam na karishyasi tato sadharmam krittincha hitva papam avapshasi akirtincha api bhutani pathain tadmite vayam sambhavitasya chakirtir maranaruti richyate bhayadranadupratam mangsante tvam maharathah jesam cha tam bahumata bhutva jasya shilaghavam avachya badanscha bahum vadishyanti tavahita samartham tato dukha tarang nukim hato va prapshashi sargam जीत्वा वा भोक्षसे महीं तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः सुखो दुखे समेकृत्या लाभलाभो जयाजयो ततो युद्धाय युज्यश्च नैवं पापम् अवाप्नुषि एषा ते भीतिता हङ्के बुद्धिर्योगे त्रिमांसिनो बुद्धा युक्तो जया वार्तो भीम कमनाशोस्ति प्रत्यवाय न विद्यते सल्पमप्यस्य धर्मस्य प्रायते महतो भया बुद्धि एकेह गुरुनन्दन बहुशाखा हि अनन्ताश्च बुद्धयो व्यवसायिना जामिमां पुष्पितां वाचां प्रवदन्त्यपि पश्चितः वेदवादरता पार्थ नन्नादस्तितिवादिनः कामात्मना सर्गपरा जन्म कर्म फलप्रदा क्रियाविशेष बहुला भोगैषर्ज गतिं प्रति भोगैषर्ज प्रसक्तानां तया परहितचेतसा व्यवसायात्मिका बुद्धि समाधो न विधीयते त्रैगुण विषया वेदा निस्त्रैगुण भवार्जुन निर्दंड नित्य सत्तस्थो निर्जोग क्षेमयात्मवान् जावनर्थ उदपाने सर्वतो संस्कृतो दके तावान् सर्वेषु निदेशु ब्राह्मणस्य विजानतः कर्मन्नाविकारस्य ये तो है आनि संगं तक्त्या धनंजय सिद्ध सिद्धो समो भूत्या समत्यं योगयुच्यते दूरे नहि वरं कर्म बुद्धिजोगात् धनंजय बुद्धौ शरणं मन्निच्छा कृपणा फलहेतवः बुद्धियुक्त जयातिह उभे सुकृत दुष्कृते तस्माज्जोगाय युज्यस्य जोगो कर्म सुकौशलं कर्मजं बुद्धियुक्ता हि फलं तप्त्या मनीषिणः जन्मबन्ध विनिर्मुक्ता पदं गच्छन्तनामयं जदा ते मोहकलिलं बुद्धिर्व्यतीतरिष्यति तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्नाते जदा स्थास्यति निश्चला समाधावोचना बुद्धिः जोगम् अवाप्स्यसि अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितधि किं प्रभाषेत किमाशीत प्रजेत किं श्रीभगवानुवाच प्रजहाति जदा कामान् सर्वान् पार्थ मनोगतान् आत्मन्नेवात्मना तुष्ट स्थितप्रज्ञस्तदुच्यते शुअनुद्विग्नमन सुखेषु विगतस्पृहा वीतरागो भयक्रोध स्थितधीर्मुनिरुच्यते ज सर्वत्रानभिस्नेहान् तत्तत्प्राप्य शुभाशुभम् नाभिनन्दन्ति निःसृष्टि तस्य प्रज्ञा प्रतिष्ठितः जदा संहरते चायं कूर्माङ्गानीव सर्वशः इन्द्रियानिन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रसव्यस्य परं दृष्टा निवर्तते जततो हि अपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथिनि हरन्ति प्रशवं मनः तानि सर्वाणि संयम्य युक्तो आशीतो मत्परः वशे हि जस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता धायते विषयान् पुंसा संगस्तेषु उपजायते संगात् संजायते काम कामात् क्रोधो विजायते क्रोधात् भवति सन्मोहा सन्मोहात् स्मृतिविभ्रमा स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषविद्वेष्टौ विषयानिन्द्रियश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादम् अधिगच्छति प्रसादे सर्वदुःखानां हानिरसोपजायते प्रसन्नचेतसा ह्यासु बुद्धिपर्यवतिष्ठते नास्ति बुद्धिरजुक्तस्य न चाजुक्तस्य भावना न चाभाव यतो शान्तिरशान्तस्य कुतो सुखम् इन्द्रियाणां हि चरतां जन्मनोऽनुविधीयते तदस्य हरति प्रज्ञा वायुर्नावमिभाम्बसि तस्माज्जस्यो महाबाहो सर्वशः इन्द्रियानिन्द्रियाद्भ्यस्तस्य प्रज्ञा प्रतिष्ठिता जानीषा सर्वभूतानां तस्यां जागर्ति संयमी जस्यां जाग्रति भूतानि सा निशा पश्यतो मुने अपूर्यमानम् अचल प्रतिष्ठम् समुद्रमाप प्रविशन्ति जद्व तद्वत् कामजं प्रविशन्ति सर्वे सशान्तिमाप्नोति न कामकामी विहाय कामाञ्च सर्वान् पुमांश्चरति निष्पृह निर्ममो निरहङ्कारो शान्तिमधिगच्छति एषा ब्राह्मी स्थितिपार्थ नैनं प्राप्तो विमुच्यति स्थितासकालेऽपि ब्रह्मनिर्वाणं पृच्छति कृष्णार्जुनसंवादे साङ्खयोग नाम द्वितीयः अध्यायः तृतीयः अध्यायः. You can do it. Maybe come and take the mic.